सुब्रह्मण्योऽग्निगतः पातु सेनानिः पातु पृष्ठतः गुहो मां दक्षिणे पातु वह्निजः पातु वामतः शिरः पातु महासेनः स्कन्दो रक्षेल्ललाटकम् नेत्रे मे द्वादशाक्षश्च श्रोत्रे रक्षतु विश्वभृत् मुखं मे षण्मुखः पातु नासिकां शङ्करात्मजः औष्ठौ वल्लीपतिः पातु जिह्वां पातु षडाननः देवसेनापतिर्दं तान् चुबुकं बहुलात्मजः कण्ठं तारकजित् पातु बाहु द्वादश बाहुमान् हस्तौ शक्तिधरः पातु वक्षः पातु शरोद्भवः हृदयं वह्निभुः पातु कुक्षिं पात्वाम्बिका सुतः नाभिं शम्भुसुतः पातु कटिं पातु हरात्मजः ऊरु पातु गजारूढो जानु मे जाह्नवीसुतः जङ्घे विशाखो मे पातु पादौ मे शिखिवाहनः सर्वाण्यङ्गानि भूतेशः सर्वधातुंश पावकिः सन्ध्याकाले निशीथिन्यां दिवा प्रातर्जले निग्निषु दुर्गमे च महारण्ये राजद्वारे महाभये तुमुले रणमध्ये च सर्पदुष्टमृगादिषु चोरादिसाध्वसे निभेद्ये ज्वरादिव्याधिपीडने दुष्टग्रहादिभीतौ च दुर्निमित्तादिभीषणे अस्त्रशस्त्रनिपाते च पातु मां क्रौञ्चरन्ध्रकृत् इति श्री सुब्रह्मण्यकवचस्तोत्रम् सम्पूर्ण